दत्तात्रेयं कुमारं हृदि दधदृषभं हंसकृष्णो हरिन्तं धार्मं नारायणाख्यं सदशशतसहस्राद्यनन्तावतारं तन्नुन्नस्तप्तसूक्त्यैर्वरमुचितनरैरेष सेव्यत्वमाप्तः कृच्छ्राद्यात्रोन्मुखो मे सगतिरपि हरिर्व्यासनारायणाख्यः लब्ध्वानुज्ञां मुकुन्दात् स्वजनमुपगतो नेकभिक्षा प्रभोक्ता अतुल्यं भाष्यं च कुर्वन् स्वसमगुणगणं सम्प्रजातः पुनर्यान् षट्शास्त्राशेषशाखा स्वखिलविजयवान् शोभनं सूरिवर्यं शिष्यं लब्ध्वातिजयित्रं पुनरपि विविधान् प्राप्तरूप्यो गतिर्मे सख्ये व्याख्याय भाष्यं कलिमलमपनीयाच्युतज्ञायचालम् कार्ष्णीमर्चामचाल्यां त्रिदशकतरुणैर्लीलयानीयरूप्ये आस्थाप्योदस्य यज्ञप्रतिहतिनिरतान् कारयित्वास्य यज्ञं व्यासं नत्वा पुनश्च प्रतिगतरदतः सम्प्रसीदेत्समध्वः सागस्त्वादीशदेवं परवशखननं यो व्यधादप्लवस्वैः गङ्गातारीस्वनीत्या वशितयवनराट्वर्त्मनि क्वापि चोरान् हन्तुं यातान्मिथोऽहन् क्वचिदपि निजशिष्येण चाद्रावयद्राक् योगेनाभूच्छिलाभः क्वचिदपि सगणस्थं महे क्षन्दिदृक्षे दैत्यव्याघ्रोपघाति नरसखकरतो लब्धगौरोपलार्चो व्यासाज्ञाभृत्सुतर्ता लघुसुरसरितो वारिसंस्तम्भयोगात् भित्त्वा भूमिं द्युनद्या मठमुपगतया वन्दितो मूर्तिमत्या यो नोऽनेकान् विजिज्ञे युगपदपि गतान् यः सलीदन्तमीढे